श्री गुरुभ्यो नमः हरिः ॐ ब्रह्मोवाच वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वाममध्यात्मज्ञानभिरिम्बहृदि भाव्यम् हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा छित्त्वा सर्वं संशयबन्धं विषयौधान् पश्यन्तीशं यं गतमोहायतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् मायातीतं माधवमाद्यं जगदादिं मानातीतं मोहविनाशं मुनिवन्दम् योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् भावाभावप्रत्ययहीनं भवमुक्तैर्भोगासक्तैरर्चितपादाम्बुजयुग्मम् नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदानम् त्वं मे नाथो नाथितकार्याखिलारी मानातीतो माधवरूपोऽखिलधारी भक्त्यागम्यो भावितरूपो भवहारी योगाभ्यास्यैर्भावितचेतःसहचारी त्वामाद्यन्तं लोकततीनां परमेशं लोकानां नो लौकिकमानैरधिगम्यम् भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् को वा ज्ञातुं त्वाममतीमानं गतमानं मानसाक्तो माधवशक्तो मुनिमान्यम् वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्द्यं सुखकन्दम् नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानन्दं निर्विषयज्ञानमनादिम् मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मधुरेशम् श्रद्धायुक्तो यः पठतीमं स्थवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्यातापातकजालैर्विगतः स्यात् इति श्रीमन्मध्यात्मरामायणे युद्धकाण्डे त्रयोदशसर्गे श्रीब्रह्मदेवकृता श्रीरामस्तुतिः सम्पूर्णम्।